ओम नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। श्रीशुक उवाच, न भागो न भगापत्यं यं ततं भ्रातरः कविं यविष्ठं व्यभजन्तायं ब्रह्मचारिणमागतं। भ्रातरो भाङ्क्त किं मह्यं, भजाम पितरं तव। त्वामार्यास्तता भाङ्क्षुर्मा पुत्रक तदा द्विथाः। इमे अङ्गिरस सत्रमासतेऽद्य सुमेधसः, षष्ठं षष्ठमुपेत्याहः। कवे मुह्यन्ति कर्मणि, तांस्त्वं संशयसूक्ते द्वे वैश्वदेवे महात्मनः। ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः, दास्यन्ति ते च तान् गच्छ तथा सकृतवान् यथा। तस्मै दत्त्वा ययुः स्वर्गं ते सत्र परिशेषितम्। तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः। उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु, ममेदं ऋषिभिर्दत्तमिति तर्हि स्म मानवः। स्यान्नौ ते पितरि प्रश्नः, पृष्टवान् पितरं तथा। यज्ञवास्तु गतं सर्वमुच्छिष्टं ऋषयः क्वचित्, चक्रुर्विभागं रुद्राय सदेवः सर्वमर्हति। नाभागस्तं प्रणम्याः तवेश किल वास्तुकम्। इत्याह मे पिता ब्रह्मन् शिरसा त्वां प्रसादये, यत्ते पिता वदद्धर्मं त्वं च सत्यं प्रभाषसे। ददामि ते मन्त्रदृशे ज्ञानं ब्रह्म सनातनम्, गृहाणद्रविणं दत्तं मत्सत्रे परिशेषितम्। इत्युक्त्वान्तर्हितो रुद्रो भगवान् सत्यवत्सलः। य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः, कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मनः। नाभागादम्बरीशो भून्महाभागवतः कृती, नास्पृशद्ब्रह्मशापोऽपि यं न प्रतिहतः क्वचित्। राजोवाच, भगवन् श्रोतुमिच्छामि राजर्षेस्तस्य धीमतः। न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः। श्रीशुक उवाच, अम्बरीशो महाभागः सप्तद्वीपवतीं महीम्, अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि। मेनेति दुर्लभं पुंसां सर्वं तत्स्वप्न संस्तुतम्, विद्वान् विभवनिर्वाणं तमो विशति यत्पुमान्। वासुदेवे भगवति तद्भक्तेषु च साधुषु, प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम्। स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने, करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युत सत्कथोदये। मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्य गात्रस्पर्शेङ्गसङ्गमम्, घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्यारसनां तदर्पिते। पादौ हरे क्षेत्रपदानुसर्पणे, शिरो ऋषिकेशपदाभिवन्दने। कामं च दास्येन तु कामकाम्यया, यथोत्तमश्लोकजनाश्रया रतिः। एवं सदा कर्मकलापमात्मनः, परेधि यज्ञे भगवत्यथोक्सजे। सर्वात्मभावं विदधन्महीमिमां, तन्निष्ठविप्राभिहितः शशासः। ईजेष्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचिताङ्गदक्षिणैः। ततैर्वसिष्ठासितगौतमादिभिर्धन्वन्यभिस्रोतमसौ सरस्वतीम्। यस्य क्रतुसुगीर्वाणैः सदस्या ऋत्विजो जनाः, तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवाससः। स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रियः, शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम्। समर्थयन्ति तान् कामाः स्वाराज्यपरिभाविताः, दुर्लभानापि सिद्धानां मुकुन्दं हृदि पश्यतः। स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः, स्वधर्मेण हरिं प्रीणन् सङ्गान् सर्वाञ्छनैर्जहौ। गृहेषु दारेषु सुतेषु बन्धुषु, द्विपोत्तमस्यं धनवाजिपत्तिषु, अक्षय्यरत्नाभरणायुधादिष्वनन्तकोशेष्वकरोदसन्मतिम्। तस्मादाद्धरिश्चक्रं प्रत्यनीकभयावहम्, एकान्तभक्तिभावेन प्रीतो भृत्याभिरक्षणम्। आरिराधयिषुः कृष्णं महिष्यातुल्यशीलया, युक्तः सांवत्सरं वीरो दधारद्वादशीव्रतम्। व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः, स्नातः कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत्। महाभिषेकविधिना सर्वोपस्करसम्पदा, अभिषिच्याम्बरा कल्पैर्गन्धमाल्यार्हणादिभिः। तद्गतान्तर्भावेन पूजयामास केशवम्, ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तितः। गवाम रुक्म विषाणीनाम रूप्यांघ्रीणाम सुवाससाम पयशील वयो रूप वत्सोपस्कर संपदाम प्राहिणोत् साधु विप्रेभ्यो गृहेषु न्यर्बुदानि षट् भोजयित्वा द्विजानग्रे स्वाद्वन्नम् गुणवत्तमम् लब्धकामैरनुज्ञातः पारणायोपचक्रमे तस्य तर्यतिथिः साक्षात् दुर्वासा भगवान् अभूत् तमानर्चातिथिम् भूपः प्रत्युत्थानासनार्हणैः ययाचेऽभ्यवहाराय पादमूलमुपागतः प्रतिनन्द्यस्य तद्याच्याम् कर्तुमावश्यकम् गतः निममज्ज बृहध्यायन् कालिन्दी सलिले शुभे मुहूर्तार्धावशिष्टायाम् द्वादश्याम् पारणम् प्रति चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ब्राह्मणा अतिक्रमे दोषो द्वादश्याम् यदपारणे यत्कृत्वा साधु मे भूयादधर्मो वा न माम् स्पृशेत् अम्भसा केवले नाथ करिष्ये व्रतपारणम् प्राहुरभक्षणम् विप्रा यशितम् नाशितम् च तत् इत्यपः प्रास्य राजर्षिश्चिन्तयन् मनसाच्युतम् प्रत्यचष्ट कुरु श्रेष्ठ द्विजागमनमेव सः दुर्वासा यमुना कूलात् कृतावश्यक आगतः राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितम् धिया मन्युना प्रचलद् गात्रो भृगुटी कुटिलाननः बुभुक्षितश्च सुतराम् कृताञ्जलिमभाषत अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत धर्मव्यतिक्रमम् विष्णोरभक्तस्येष मानिनः यो मामतिथिमायातमातिथ्येन निमन्त्र्य च अदत्त्वा भुक्तवान्स्तस्य सद्यस्ते दर्शये फलम् एवम् ब्रुवाण उत्कृत्य जटाम् रोषविदीपितः तया स निर्ममे तस्मै कृत्याम् कालानलोपमाम् तामापतन्तीम् ज्वलतीमसिहस्ताम् पदा भुवम् वेपयन्तीम् समुद्वीक्ष्य न च चालपदान् नृपः प्राग्दिष्टम् भृत्य रक्षायाम् पुरुषेण महात्मना ददाह कृत्याम् ताम् चक्रम् क्रुद्धाहिमिव पावकः तदभिद्रवदुद्वीक्ष्य स्वप्रयासम् च निष्फलम् दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया तमन्वधावत् भगवत् रथाङ्गम् दावाग्निरुद्धूतशिखो यथाहिम् तथानुशक्तम् मुनिरीक्षमाणो गुहाम् विविक्षुः प्रससार मेरोः दिशो न पक्ष्माम् विवरान् समुद्रान् लोकान् सपालान् स्त्रिदिवम् गतः सः यतो यतो धावति तत्र तत्र सुदर्शनम् दुःप्रसहम् ददर्श अलब्धनाथः स यदा कुतश्चित् सन्त्रस्तचित्तोरणमेषमाणः देवम् विरिञ्चम् समगाद्विधातस्त्राह्यात्मयो नेजित तेजसो माम् ब्रह्मोवाच स्थानम् मदीयम् सह विश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे भ्रूभङ्गमात्रेण हि सन्धिचक्षोः कालात्मनो यस्य तिरो भविष्यति अहम् भवो दक्ष भृगुप्रधानाः प्रजेश भूतेश सुरेश मुख्याः सर्वे वयम् यन्नियमम् प्रपन्ना मूर्ध्न्यर्पितम् लोकहितम् वहामः प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः दुर्वासा शरणम् यातः सर्वम् कैलासवासिनम् श्रीरुद्र उवाच वयम् न तात प्रभवाम भूम्नि यस्मिन् परेण्येऽप्यजीवकोशाः भवन्ति कालेन भवन्ति हीदृशाः सहस्रशो यत्र वयम् भ्रमामः अहम् सनत्कुमारश्च नारदो भगवानजः कपिलोपान्तरतमो देवलो धर्म आसुरिः मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः विदामन वयम् सर्वे यन्मायाम् माययावृताः तस्य विश्वेश्वरस्येदम् शस्त्रम् दुर्विषहम् हिनः तमेव शरणम् याहि हरिस्ते संविधास्यति ततो निराशो दुर्वासा पदम् भगवतो ययौ वैकुण्ठाख्यम् यदध्यास्ते श्रीनिवास श्रियासः सन्दह्यमानोजितशस्त्रवह्निना तत्पादमूले पतितः सवे पथुः आहाच्युतानन्त सदीप्सित प्रभो कृतागतम् मा वहि विश्वभावन अजानता ते परमानुभावम् कृतम् मयाघम् भवतः प्रियाणाम् विदेहि तस्यापचितिम् विधातर्मुच्येत यन्नाम्न्युदिते नारकोऽपि श्रीभगवानुवाच अहम् भक्तपराधीनो यः स्वतन्त्र इव द्विज साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना श्रियम् चात्यन्तिकीम् ब्रह्मन् येषाम् गतिरहम् परा ये दारागारपुत्राप्तान् प्राणान् वित्तमिमम् परम् हित्वा माम शरणं याता कथं तान् त्यक्तुमुत्सहे। मयि निर्बद्ध हृदया साधवः समदर्शनाः वशीकुर्वन्ति माम् भक्त्या सत्स्त्रियः सत्पतिम् यथा। मत्सेवया प्रतीतम् च सालोक्यादिचतुष्टयम् नेच्छन्ति सेवया पूर्णा कुतोऽन्यत्कालविद्रुतम्। साधवो हृदयम् मह्यम् साधूनाम् हृदयम् त्वहम्। मदन्यत्ते न जानन्ति नाहम् तेभ्यो मनागपि। उपायम् कथयिष्यामि तव विप्रशृणुष्व तत्। अयम् यात्मा विचारस्ते यतस्तम् यातु वै भवान्। साधुषु प्रहितम् तेजः प्रहर्तुः कुरुते शिवम्। तपो विद्या च विप्राणाम् निःश्रेयसकरे उभे। ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा। ब्रह्मन्स्तद्गच्छ भद्रम् ते नाभागतनयम् नृपम्। क्षमापय महाभागम् ततः शान्तिर्भविष्यति। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे अम्बरीषचरिते चतुर्थोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।